श्रीमृत्युञ्जय मानसिक पूजास्तोत्रम्
कैलासे कमनीय रत्न खचिते कल्पद्रुमूले स्थितम् कर्पूर स्फटिकेन्दु सुन्दर तनुम् कात्यायनी सेवितम् गङ्गा तुङ्ग तरङ्ग रञ्जित जटा भारम् कृपा सागरम् कण्ठालङ्कृत शेष भूषण ममुम् मृत्युञ्जयम् भावये आगत्य मृत्युञ्जय चन्द्रमौले व्याघ्राजिनालङ्कृत शूलपाने स्वभक्त संरक्षण कामधेनो प्रसीद विश्वेश्वर पार्वतीश भास्वन्मौक्तिकतोरणे मरकत स्तम्भायुतालङ्कृते सौधे धूप सुवासिते मणिमये माणिक्य दीपार्चिते ब्रह्मेन्द्रामर योगि पुङ्गव गणैः युक्ते च कल्पद्रुमैः श्रीमृत्युञ्जय सुस्थिरो भव विभो माणिक्य सिंहासने मन्दार मल्लीकर वीर माधवी पुन्नागलीलोत्पल चम्पकान्वितैः कर्पूर पाटीर सुवासितैः जलैराधस्व मृत्युञ्जय पाद्यमुत्तमम् सुगन्धि पुष्प प्रकरैः सुवासितैः वियन्नदी शीतल वारिभिः शुभैः त्रिलोकनाथार्तिहरार्ध्यमादराद् गृहाण मृत्युञ्जय सर्ववन्दित इमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः मृत्युञ्जय महादेव शुद्धा च मनमाचर गुडदधि सहितम् मधु प्रकीर्णम् सुहृत समन्वित वेणुदुग्ध युक्तम् शुभकर मधुपर्कमाहर त्वम् त्रिनयन मृत्युहर त्रिलोक वन्द्य पञ्चास्र शान्त पञ्चास्य पञ्च पातक संहर पञ्चामृत स्नानमिदम् कुरु मृत्युञ्जय प्रभो जगत्त्रयी ख्यात समस्त तीर्थ समाहृतैः कल्मषहारिभिश्च स्नानम् सुतोयै समुदाचर त्वम् मृत्युञ्जयानन्त गुणाभिराम आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमाग् मार्जयामि जटाभारम् शिव मृत्युञ्जय प्रभो नाना हेम विचित्राणि चिरचीनाम्बराणि च विविधानि च दिव्यानि मृत्युञ्जय सुधारय विशुद्ध मुक्ता फलजाल रम्यम् मनोहरम् काञ्चन हेम सूत्रम् यज्ञोपवीतम् परमम् पवित्रम् आधत्स्व मृत्युञ्जय भक्ति गम्य श्रीगन्धम् घनसार कुङ्कुमयुतम् कस्तूरिका पूरितम् काले येन हि माम्बुना विरचितम् मन्दार संवासितम् दिव्यम् देव मनोहरम् मणिमये पात्रे समारोपितम् सर्वाङ्गेषु विलेपयामि सततम् मृत्युञ्जय श्रीविभो अक्षतैर्धवलैर्दिव्यैः सम्यक्तिल समन्वितैः मृत्युञ्जय महादेव पूजयामि वृषध्वज चम्पक पङ्कज कुरवक कुन्दैः करवीर मल्लिका कुसुमैः विस्तारय निज मकुटम् मृत्युञ्जय पुण्डरीक नयनात् माणिक्य पादुका द्वन्द्वे मौनिहृत्पद्म मन्दिरे पादौ सत्पद्म सदृशौ मृत्युञ्जय निवेशय माणिक्य केयूर किरीटहारैः काञ्चीमणिस्थापित कुण्डलैश्च मञ्जीर मुख्याभरणै मनोज्ञैः अङ्गानि मृत्युञ्जय भूषयामि गजवदन स्कन्द धृतेन अतिस्वच्छेन चामरयुगेन गलदर ललकानन पद्मम् मृत्युञ्जय भावयामि हृत्पद्मे मुक्तादपत्रम् शशिकोटिशुभ्रम् शुभप्रदम् काञ्चनदण्डयुक्तम् माणिक्य संस्थापित हेमकुम्भम् सुरेश मृत्युञ्जय तेऽर्पयामि मणिमुकुरे निष्पटले त्रिजगद्गाढान्धकार सप्ताश्वे कन्दर्पकोटिसदृशम् मृत्युञ्जय पश्य वदनमात्मीयम् कर्पूरचूर्णम् कपिलाद्यभूतम् दास्यामि काले यसमन्वितम् च समुद्भवम् पावनगन्धधूपितम् मृत्युञ्जयाङ्गम् परिकल्पयामि वर्तित्रयोपेतमखण्डदीप्त्या तमोहरम् बाह्यमथान्तरम् च साज्यम् समस्तामरवर्गहृद्यम् सुरेश मृत्युञ्जय वंशदीपम् राजानम् मधुरान्वितम् च मृदुलम् माणिक्यपात्रे स्थितम् हिङ्गूजीरक सन्मरीचिमिलितैः शाकैरनेकैः शुभैः साकम् सम्यगपूपसूपसहितम् सद्यो वृधे नाप्लुतम् श्रीमृत्युञ्जय पार्वती प्रिय विभो सापोषणम् भुज्यताम् कूष्माण्डवार्ताकपटोलिकानाम् फलानि रम्यानि च कारवल्याः सुपाकयुक्तानि ससौरभाणि श्रीकण्ठमृत्युञ्जय भक्षयेश शीतलम् मधुरम् स्वच्छम् पावनम् वासितम् लघु मध्ये स्वीकुरु पानीयम् शिव मृत्युञ्जय प्रभो शर्करामिलितम् स्निग्धम् दुग्धान्नम् गोघृतान्वितम् कदलीफलसम्मिश्रम् भुज्यताम् मृत्युसंहर केवलमतिमाधुर्यम् दुग्धैः स्निग्धैश्च शर्करामिलितैः केलामरीचिमिलितम् मृत्युञ्जय भुङ्क्ष्वपरमान्नम् रम्भाचूतकपित्थकण्टकफलैः द्राक्षारसस्वादुमत् कर्जूरैर्मधुरेक्षुकण्डशकलैः सन्नारिकेलाम्बुभिः कर्पूरेण सुवासितैर्गुडजलैः माधुर्ययुक्तैर्विभो श्रीमृत्युञ्जय पूरय त्रिभुवनाधारम् विशालोदरम् मनोज्ञरम् भावनखण्डखण्डितान् रुचिप्रदान् सर्षपजीरकांश्च ससौरभान् सैन्धवसेवितांश्च गृहाण मृत्युञ्जय लोकवन्द्य हिङ्गूजीरकसहितम् विमलामलकम् कपित्रमति मधुरम् विषघण्टाल्लवणयुतान् मृत्युञ्जय एकयामि जगदीश एलाशुण्टी सहितम् दध्यन्नम् चारुहेम पात्रस्थम् अमृत प्रतिनिधिमाढ्यम् मृत्युञ्जय भुज्यताम् त्रिलोकेश नीराजनम् निर्मलदीप्तिमद्भिः दीपाङ्कुरैरुज्ज्वलमुच्छ्रितैश्च घण्टानिनादेन समर्पयामि मृत्युञ्जयाय त्रिपुरान्तकाय